एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अर्थमन्त्रिणा जनार्दन शर्मणा पदात्यागपत्रम् प्रदत्तम् वर्तते। प्रतिनिधि सभायाम् गतदिने वक्तव्यम् ददत् अर्थमन्त्री शर्मा आत्मनि आक्षिप्तः आरोपः निराधारः सन्नपि संसदीयानुसन्धान विशेष समितेः संघटनस्य कारणात् नैतिकतायाः आधारेण त्यागपत्रम् प्रदत्तमिति अवोचत्। अर्थमन्त्री शर्मा आत्मना अर्थव्यवस्थायाः सुधारस्य विषये बहुषु कार्येषु कृतेषु सत्स्वपि विपक्षिदलेन निराधार आरोपः आक्षिप्तः इति कथयन् तथ्यम् अनुसन्धातुम् आरोपम् प्रमाणीकर्तुम् च आह्वयत्। प्रतिनिधि सभायाः उपवेशेन आगामिनः आर्थिक वर्षस्य कृते एतद् वैक्रमाब्दस्य आर्थिक विधेयकस्य करस्य अंकानां परिवर्तनाय अनधिकृत व्यक्तिः प्रवेशितेति विषये अनुसन्धानाय संसदीयानुसन्धान विशेष समितिः संघटिता वर्तते। समित्या एतद् वैक्रमाब्दस्य आर्थिक विधेयकस्य करस्य अंकानां परिवर्तनाय अनधिकृत व्यक्तिः प्रवेशितेति उक्त्वा उत्थितस्य विषयस्य तथ्यम् अनुसन्धाय परामर्शसहितं प्रतिवेदनं सदने प्रस्तुष्यते। समित्यै कार्यप्रारम्भस्य दिनांकात् 10 दिनानां समयः दत्तोऽस्ति। उपवेशे मुखेन अग्निप्रसाद सापकोटाविदेन पञ्चसप्तत्यधिक2000 विक्रम वर्षीयायाः प्रतिनिधि सभा नियमावल्याः 77+100 नियमस्य अनुसारेण विशेष समितेः संघटनाय प्रस्तुतः प्रस्तावः संसदा पारितीकृतः आसीत्। समितौ सांसदाः खगराज अधिकारी, देवप्रसाद गुरूङ, पुष्पा भूषाल गौतमः, प्रदीप कुमार गेवाली, भानुभक्त ढकालः, विमला विक, लक्ष्मणलाल कर्ण, शक्तिबहादुर बस्नेत, सरला कुमारी यादवः, सीताराम महतो, सुरेन्द्र प्रसाद यादवश्च सन्ति। प्रतिनिधि सभायाः गतदिवसीयोपवेशेन एतद् विक्रमादीयं रेलवे विधेयकं विचार्यतामिति प्रस्तावः सर्वसम्मत्या स्वीकृतं वर्तते। भौतिक पूर्वाधार यातायात मन्त्रिणा मोहम्मद इस्तियाक राई इत्यनेन उपवेशे विधेयकमिदं विचार्यतामिति निगद्य प्रस्तावः प्रस्तुतः आसीत। तत्पूर्व विधेयक विषये विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री राई वैदेशिकेभ्यः प्रत्यक्षतो रेलयान सञ्चालनानुमति प्रदानं सर्वकारस्य अभिप्रायो नास्तीति स्पष्टीकुर्वन् अभाषत प्रचलित विधेहे आधारेण वैदेशिकेभ्यः नैज संस्थानेभ्यो वा सहयोगः ग्रहीतुं शक्यते। असौ अतर्कयत् सम्प्रति जनकपुर जयनगर स्थानयोः रेलयान चालनस्य कारणादपि अधिनियमः आवश्यको वर्तते। प्रतिनिधि सभायाः ह्य तृतीयवारम् उपविष्टे उपवेशे गणपूरक संख्यायाः अपूरणात् सभामुखः सापकोटा कार्यसूच्यां समाविष्टाः सर्वे कार्यक्रमाः अपाकृताः सन्तीति अबोधयत। तत्पूर्वं द्वितीयवारम् उपविष्टेन उपवेशेन एतद् विक्रम वर्षीयं ज्वलनशील द्रवाण्य घातक रासायनिक पदार्थ नियमन विधेयकं सर्वसम्मत्या पारितीकृतम्। उपवेशे गृहमन्त्रिणा बालकृष्ण खाण इत्यनेन विधेयकमेतत् पारितीक्रियतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या पारितोऽभवत्। एवमेव उपवेशेन स्वास्थ्य जनसंख्या मन्त्रिणा भवानी प्रसाद खापुङ इत्यनेन एतद् वैक्रमाब्दे औषध तृतीय संशोधन विधेयकम्, स्वास्थ्यकर्मी स्वास्थ्य संस्थानं सुरक्षा सम्बद्धं प्रथम संशोधन विधेयकं च विचार्येतामिति निगद्य प्रस्तुतः प्रस्तावोऽपि सर्वसम्मत्या स्वीकृतो वर्तते। प्रतिनिधिसभायाः अपरोपवेशः अद्य द्विवादने वसति। राष्ट्रपतिना विद्यादेवी भण्डारिणा अर्थमन्त्रिणा जनार्दन शर्मणा पदात्यागपत्रम् प्रदत्तम् इति हेतोः अर्थमन्त्रिणो दायित्वम् प्रधानमन्त्रिणा सेवारुदेवाभिधेन निर्वहणत्वेन निर्धारितम् वर्तते। नेपालस्य संविधानस्य अनुसारेण अर्थमन्त्रिणा शर्मणा त्यागपत्रम् प्रदत्तम् इति कारणात् प्रधानमन्त्रिणः परामर्शेन राष्ट्रपतिना भण्डारिणा अर्थमन्त्रालयस्य कार्यभारः प्रधानमन्त्रिणा देवाभिधेन निर्वहणत्वेन निर्धारितः इति राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण ह्य प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। निर्वाचनायोगेन प्रतिनिधिसभायाः प्रदेशसभानाञ्च सदस्यानां निर्वाचनस्य आगामिनः मार्गशीर्षमासस्य द्वितीय दिवसे एकस्मिन्नेव चरणे सम्पादनत्वेन निर्वाचनस्य दिनांकं निर्धारयितुं सर्वकारः परामृष्टो वर्तते। प्रधानमन्त्रिणा सेवारुदेवाभिधेन मन्त्रिभिश्च सह ह्य प्रमुख निर्वाचनायुक्तेन दिनेश कुमार थपलियाभिधेन निर्वाचनायुक्तैश्च विहिते विमर्शने आगामिनो मार्गशीर्षमासस्य द्वितीयं दिवसं निर्वाचनस्य दिनं निश्चेतुं आयोगेन सर्वकारः परामृष्टोऽस्ति। तदवसरे प्रधानमन्त्री देउवा प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनाय निर्वाचनायोगेन परामृष्टस्य दिवसस्य पार्श्ववर्ति दिनांकेषु निर्वाचनावधेश्च निर्धारणत्वेन सर्वकारेण उपयुक्तं दिनं निर्धारयिष्यते इति अज्ञापयत्। विमर्शने प्रधानमन्त्रिणा देउवाभिधेन एतद् विक्रमवर्षीय स्थानीयस्तर निर्वाचनस्य शान्तिपूर्णरूपेण सम्पादनम् आलक्ष्य आयोगाय धन्यवादश्च ज्ञापितः आसीत्। तदवसरे प्रमुख निर्वाचन आयुक्तः थपलिया आगामिनि निर्वाचने वैद्युत मतदान यन्त्रस्य प्रयोगस्य सम्बन्धे नेपाल सर्वकारस्य ध्यानम् आकर्षयत्। प्रतिनिधिसभायाः प्रदेशसभानाञ्च एतद् विक्रमवर्षीयं निर्वाचनं सम्पादयितुम् आसन्न दशाब्जानां रूप्यकाणां प्रारम्भिक व्ययानुमानम् आयोगेन प्रस्तुतमस्ति। संघीयता क्रियान्वयनाध्ययनानुगमन संसदीय विशेष समित्या संघीयतायाः क्रियान्वयनस्य सम्बन्धे दृष्टस्य राजनीतिक विधिगत प्राशासनिक काठिन्यस्य विषये अध्ययनं प्रारब्धं वर्तते। सिंहप्रासादे गतदिने आयोजिते पत्रकार सम्मेलने समित्या संविधानसभायाः सदस्यैः विभिन्नैः मन्त्रिभिः सचिवैः प्रदेशानां प्रमुख सचिवैः प्राकृतिक स्रोतो वित्तायोगस्य अध्यक्षेण पदाधिकारिभिश्च महालेखा परीक्षकेण अन्यैः सम्बद्ध पक्षैश्च सह संघीयतायाः क्रियान्वयनस्य सम्बन्धे विमृष्टमिति समितेः संयोजकः खिमलाल देवकोटा अज्ञापयत्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति सर्वैः नेपाली नागरिकैः नागरिकतायाः प्राप्तित्वेन नागरिकता विधेयकं नूतन रूपेण अग्रे वर्धयितुं सर्वकारेण नागरिकता विधेयकं प्रत्यावर्तयितुं निर्णीतमस्ति। आषाढस्य एकविंशे दिवसे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् इह मन्त्रालये आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च कार्की कतिपय नेपाली नागरिकाणां सन्ततिः नागरिकतायाः अप्राप्तेः अवस्थायाः कारणेन पीडिता स्थिति चर्चयन् एतस्य विशेष्य व्यवस्थापनं विधाय नूतन रूपेण अग्रे वर्धितुं सर्वकारेण नागरिकता विधेयकं प्रत्यावर्तितमिति समस्पष्टयत्। संचारमन्त्री कार्की अभासत नेपाली पित्रोः अप्राप्त नागरिकता सन्तत्यै भविष्यति संसदि प्रस्तुत्य पारितीकरिष्यमाणेन विधेयकेन नागरिकता प्राप्तेः मार्ग प्रशस्ति भवति। पत्रकार सम्मेलने संचार मन्त्री कार्की सर्वकारेण एतद् विक्रम वर्षीयां सशस्त्र प्रहरी द्वितीय संशोधन नियमावलीं स्वीकर्तुं वैदेशिक वृत्त्युपार्जनात् प्रत्यावृतेभ्य जनेभ्य पुनः एतद् विक्रम वर्षीयां एकीकरण कार्यक्रम संचालन व्यवस्थापन निर्देशिकां स्वीकर्तुं च निर्णीतमिति ज्ञापितवान्। संचार मन्त्री कार्की मन्त्रिपरिषदः उपवेशेन विभिन्न स्थानीय स्तरेभ्यः स्थानीय स्तर परियोजनानां कृते भूमेः प्राप्ताये स्वीकृति प्रदानस्य निर्णयेन सह विभिन्न वैदेशिक सहायतानां स्वीकरणाय च निर्णीतमस्तीति च अज्ञापयत्। नेकपा माओवादी केन्द्रस्य ह्यस्तन दिवसाय आहूतः केन्द्रीय समितेः उपवेशः पुनः स्थगित कृतो वर्तते। ह्य एव प्रतिनिधिसभायाः उपवेशस्य च वर्तमानत्वात् दिवा एकवादनाय आहूतः उपवेशः अद्य पूर्वाह्नस्य एकादशवादनं यावत् स्थगित कृतः इति माओवादी केन्द्रेण ज्ञापितमस्ति। सर्वकारेण अस्यैव आषाढस्य षड्विंशे दिवसे रविवासरे इस्लाम धर्मावलम्बिभिः आयोक्ष्यमाणस्य वक्र ईद पर्वणः दिने सार्वजनिकावकाशं प्रदातुं निर्णीतमस्ति। वक्र ईद पर्व अस्यैव आषाढस्य षड्विंशे दिवसे रविवासरे भवितेति मुस्लिमा योगाद् ज्ञापनानन्तरं तस्मिन् दिने आराष्ट्रं सार्वजनिकावकाशं प्रदातुं निर्णीतमस्तीति गृहमन्त्रालयेन ह्य सूचनां प्रकाश्य ज्ञापितं वर्तते। बाजुरा जनपदस्य बुढीगंगा नगरपालिकायाम् अद्य स्थानीय स्तरस्य निर्वाचनं विधीयमानमस्ति। अद्य विधीयमानस्य निर्वाचनस्य सर्वाण्यपि पूर्वकार्याणि प्रपूरितानि सन्ति। बाजुरावर्तिनः निर्वाचन कार्यालयस्य अनुसारेण कर्मचारिभिः सह सुरक्षाकर्मिणः मतदानस्थलवर्ति स्वस्व कार्यक्षेत्रं प्राप्ताः वर्तन्ते। वैशाखस्य त्रिंशे दिवसे सम्पन्नस्य निर्वाचनस्य विवादित भवनानन्तरं निर्वाचनायोगेन बुढीगंगा नगरपालिकायाः निर्वाचनं स्थगितीकृत्य पुनर्निर्वाचनाय निर्णीतमासीत्। मतदानाय कठोरेण सुरक्षा व्यवस्था क्रियान्वितास्ति। बुढीगंगा नगरपालिकायां सहस्रं सुरक्षाकर्मिणः परिचालिताश्च वर्तन्ते। इति समाचारः।